सर्वेषां स्वागतं. वयम् इदानीं प्रथमं ध्येयमन्त्रं वदामः. का वक्तुमिच्छति?
नमस्कारः भगिनी, सौन्दर्यम्.
वदतु भगिनी, भवती वक्तुमिच्छति वा ध्येयमन्त्रं? अस्तु भगिनि, अहमेव वदामि. अस्तु
भगिनी, ऐ विल् नीड् भगिनि.
वदतु. उत्तम उत्तम.
पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतं मातर संस्कृतमातरं, संस्कृतस्य प्रसाराय नैजं सर्वददाम्यहं, संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरं, संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन्, आत्मानं माहुतं मन्ये वन्दे संस्कृतमातरम्, हिन्दूधर्मं समाजं च पवित्रां संस्कृतिं तथा, संरक्षणनु कुर्यां विश्वं शान्ति समन्वितम्.
उत्तमं भगिनि, बहु उत्तमं. कुर्याम कुर्याम इति कुर्याम.
नमस्ते भगिनि.
नमस्ते
ज्योति.
ज्योति, अन्य का आगच्छति? श्रीनिवास महोदय, स्वागतम्.
नमस्कारः भगिनि. महेश कश्यप् महोदय.
महेश महोदय, स्वागतं.
धन्यवादः.
अन्य कः अस्ति अथवा का अस्ति? अस्तु अस्तु, अग्रे गच्छामः. स्म इति विषये संशयः अस्ति वा? अस्तु, वयं यदा नूतनविषयं पठामः, विषयद्वयं वयं सम्यक् अवगन्तव्यम्. एकम् अस्ति रूपं किम् इति, अन्य अस्ति, अन्यविषयः अस्ति कुत्र वयम् उपयोगं करणीयम् इति. स्म इति नूतनविषयः खलु, सो तत्र स्म इति उपयोगं कुर्मः चेत् रूपं किम्? उत्तमं. वर्तमानकाल अपि च स्म उपयोगं करणीयं. वर्तमानकाल, वर्तमानकाल रूपं क्रियापदरूपम् अपि च स्म इति योजनीयम्. अत्र स्म योजयित्वा अर्थपरिवर्तनं भवति. इदानीम् अहं वदामि अहं पठामि, वर्तमानकाल, इदानीम् अहं पठामि, परन्तु स्म इति योजयित्वा अहं पठामि स्म इति अहं वदामि चेत् अहं भूतकालविषये वदामि. अर्थपरिवर्तनं भवति, अर्थपरिवर्तनं भवति. अहं पठितवती इति स्थाने पठामि स्म इति योजयितुं शक्नुमः. ह्यः अहं पठितवती, ह्यः अहं पठामि स्म. सो तत्र कदा पठामि स्म? यदा सः लिखति अथवा यदा सः लिखितवान् तदा अहं पठामि स्म. सो वि हाव् टु यूस् यदा तदा. तत्र यदा गृहं गतवान् तदा मम अम्बा पाकं करोति स्म इत्युक्ते सा पाकं पाककार्यं न समापितवती. सा अस्तु अस्तु, या सो यदा अहं वदामि यदा गृहं गतवान् यदा सः गृतवान् तदा न यदा अहं गृहं गतवान् तदा मम अम्बा पाकं करोति स्म इति यदा वयं स्म इति उपयोगं कुर्मः तदा वयं वदामः यत् पाककार्यं समापनं न अभवत् इति the act of cooking was not completed, they were still cooking, okay, so that is past continuous iti vadamah kalo pakam karoti sma evameva balya kale bahukalat purvam aham sarovare tarami sma so tatra I used to iti so we have to mention something balya kale athava yada something happened hyah yada aham I did something tada this happens astu agre gachamah
bagini otherwise we would be using the simple
bagini bagini ekanisha Srinivasa mahodaya was saying something vadatu mahodaya
Ma will be used both in case of past continuous as well as past tense and that we have to mention the corresponding period to some other word that is
aama uttama uttama supposing I just say balyakale aham etat pustakam patitavati that means I had read this story in my younger age but if I say balyakale aham chandamama iti patrikam patami sma that means I used to read it so it was a habitual thing you see the difference when I say patitavati
balyakale iti
no balyakale eva balyakale not iti
from childhood if I say that how do you say that
balyakalatah
from childhood still now I'm reading something
so balyakalatah adya paryantam
atah paryantam okay
adya paryantam adya today
aham patami
aham patami eva because you are bringing it to present tense kala present tense you are still doing it so but if you are saying aham balya kale ambuli mama iti eka patrika ase aham balya kale ambuli mama iti patrika patitavati means I read aham patami sma परन्तु इदानीं सो द इम्प्लिकेशन् इस् इदानीम् अहं न पठामि दट् इस् द इम्प्लिकेशन् अस्तु भगिनी सागरी भगिनी वदतु
दट्स् वाट् वेन् वि से यूस् टु वि आर् इम्प्लायिङ्ग् दट् वि नाट् डूयिङ्ग् इट् एनि मोर्
करेक्ट्
वेन् वि आर् यूसिङ्ग् स्म सो वेन् वि आर् यूसिङ्ग् अ सिम्पल् पास्ट् टेन्स् I read Ambuli Mama. It could mean that you're still reading Ambuli Mama. I did it when I was a child. It could be I'm doing it now also. The difference?
I'm not implying anything. So in somebody's place, there's a lot of noise. I don't know who is this. So whoever it is, so please unmute after you finish asking the question. Okay, so when I say, supposing that there is a book called The Famous Five or something, I used to read it before. So, aham vadami balya kale, aham famous five iti pustakam patitavati. That's it. I have read this book. That's it. I'm just making a statement. But if I say, aham patami sma, that means I used to read there were a lot of reading going on
astu bagini
astu mama ambayaha balyakale Okay, she was not used to going to school. Gopika Bhagini?
Mama Ambayaha Balya Kale Sa Pata Shalam Na Gachati Sma.
Uttama. Na Gachati Sma. So you, very good. Uttama. So you put the thing in present and then add Sma. Uttama. Sarve avagachanti chet agre agre gachami na avagachanti chet kripaya prichatu prichantu no chet aham agre gachami. Sharada bhagini dvitiyam vakyam.
Puratana kale bharata deshe sarve samskrutena eva vadati sma.
So because it is sarve, it is bahuvachanam kalu.
Vadanti sma.
Uttama. Vadanti sma. Sagari bhagini. Swagatam bhagini.
Gatavarshe saha mama griham agachati sma.
Uttama. Agachati sma. That means it was a habit for him. But if I want to say he came last year, saha agatava eva. Gata varshe saha agatava. That's it. Uttama. Ketaki bhagini. Chaturtam vakya.
Yes, Bhagini. Swayam bharatiya bhojanam eva.
No, we used to have means we used to eat.
Bharate vayam bharatiya bhojanam eva. Khadati sma.
So, but then here it is vayam.
Kada maha sma. It is a past tense,
Bhagini,
right?
No. If you add sma, it becomes past tense. Kada maha sma.
So, bharate vayam bharatiya bhojanam eva kada maha sma.
Uttama. So, Bhagini, idanim, your line is very clear. Whatever you did, please do this all the time.
Okay.
Yeah, now it is very clear. Uttama. Beena Bhagini.
Bhagini. Yada kata aham mama janakam durvanyam ahyami saha chinta mastu santoshena bhavatu iti vadati sma.
Uttama. Vadati sma. Savita Bhagini?
Yes, Bhagini. Yes. Yada man, sixth one, is it?
Sorry.
Yada kada aham mama jana, no, sixth one. Yada mandiram gatavati, tada bhaktaha, the devotees were singing bhajan. Tada bhaktaha bhajanam gayati sma.
Bhajanam kurvanti sma, bhajanti sma is also a
Bhajanam bhajanti sma.
Bhajanti sma, bhaktaha.
Bhaktaha. Yada mandiram gatavati, tada bhaktaha bhajanam bhajanti sma. Is it correct?
Bhajanam kurvanti sma, atava bhajanti sma.
Bhajanti sma.
Astu. Uttama bhagini. Uma Reddy bhagini.
బాల్యే మాతామహి
రమణీయాః
కథాః
whoever is talking can unmute everybody else please mute
mama bale mata mahi ramani atta kurvanti sma
used to tell means
vadati
vadati sma uttama vadati sma vadati
bagini katayati
aamam katayati is even better katayati sma
कथयति
स्म
धन्यवादः
वदति कथयति
भगिनि प्रश्नः
वदतु भगिनि
भगिनि सो एव्रीथिङ्ग् हियर् इट्स् गोयिङ्ग् टु बि क्रियाप प्रेसेण्टेन्स् क्रियापदं रैट्
आम् आम् प्रेसेण्टेन्स् प्लस् स्म देन् वि आर् टाकिङ्ग् अबौट् द पास्ट् इवेण्ट् दट् वास् गोयिङ्ग् आन् अट् दट् पर्टिक्युलर् टैम्
अस्तु भगिनि धन्यवादः
उत्तमम् अस्तु उमा रेड्डी भगिनी अभवत् उमा कृष्णन् भगिनी
आं भगिनि बाल्ये अहम् अश्वशकटयानेन विद्यालयं गच्छामि स्म
उत्तमं गच्छामि स्म उत्तमम् उषा भगिनी स्वागतं भगिनि उषा भगिनी
उत्तमं Which number am I doing now? Eight, right? Number eight.
Aam Bhagini, but somebody has a question. Eka nimsham, tishtato.
Why is it in Tritiya Vibhakti, Bhagini? Ashwa Shakata Yanena. With the cart or in the cart? By the cart?
Yeah, so whenever we say, I'm using something to do something, then we go to Tritiya. Aham Lekanya Likami. अहं कार्यानेन गच्छामि अहं विमानेन अत्र अश्वशकटयानेन विद्यालयं गच्छामि ऐ एम् यूसिङ्ग् दिस् सो दिस् इस् अ साधनं फार् डूयिङ्ग् संथिङ्ग्
अवगतं भगिनि
ओके उत्तमम् अस्तु भगिनि उषा भगिनि
मम बाल्ये अहं
तत् अभवत् भगिनि मम बाल्ये अश्वशकटयानम् अभवत् अग्रिमवाक्यं
यदा मम पुत्रः गृहम् आगतवान् मम पतिः दूरदर्शनं दृश्यति स्म
पश्यति स्म
पश्यति स्म दृश्यते दृश्यति
दट् इस् नाट् करेक्ट् भगिनि
ओके वै
बिकास् That Kriya Padam is Pashyati Eva, it's not Darshyati. Okay, great. Ramya Bhagini?
Yada Saha Mamun Griham Agatavan Vayam Tada Kridanganam Gachyamahasma
उत्तम क्रीडाङ्गणं गच्छामः स्म उत्तम
राधिका भगिनी ऐ वास् क्वेश्चनिङ्ग् बट् ऐ फौण्ड् दट् ऐ वास् म्यूटेड् वै आर् वि यूसिङ्ग् दृश्यति वै आर् वि यूसिङ्ग् पश्यति वाट् इस् द डिफ़रेन्स् बिट्वीन् दोस् टु
वेन् वि सो द वर्तमानकाल इस् पश्यति भगिनि इस् नाट् दर्श्यति ऐ डोण्ट् नो वाट् दट् दर्श्यति इस् इट् इस् राङ्ग् दृष्टवान् यु केन् से बट् वि आर् नाट् यूसिङ्ग् द प्रापर् पेस्टेन्स् खलु वि आर् यूसिङ्ग् कण्टिन्यूस्
ओके ओके फोर् पेस्टेन्स् इट् विल् बि दृष्टवान् आर् दृष्टवती बट् प्रेसेण्ट् टेन्स् विल् बि पश्यति
Pashyati okay. is the present tense. So, for the sma, you use Pashyati plus the sma.
Okay, got it.
Good question, Bhagini. I'm sure many people were thinking that. Uttam. Astu. Jyoti, Bhagini?
Bhagini?
Mama Balya.
Mama Balya Kale Aham Mahabharatam Pashyati sma.
उत्तम महाभारतं पश्यामि खलु पश्यामि स्म उत्तमं श्रीनिवास महोदय स्वस्य वाक्यं वदति वा
ओके सॉरी बेन आई नॉट
प्रिपेयर्ड ओके ओके इट्स ओके इट्स ओके आई डोंट वांट टू पुट यू इन अ स्पॉट अग्रे गच्छामः अस्तु all right so we go towards atvantam
bagini I will say one sentence bagini malati
uttama malati asti va vadatu malati
aham balyakale aham balyakale nrityam karomi sma
uttama balyakale nityam karomi sma anya ka asti mahesh mahodaya asti kalo mahesh mahodaya vadati va
आं भगिनि अहं बाल्यकाले वृक्षाः आरोहामि स्म
वृक्षं वा वृक्षम् आरोहयामि स्म उत्तमम्
नारायणमूर्ति
नारायणमूर्ति भवान् अपि वदतु
अहं संस्कृतं पठितुं पञ्चवर्षे प्रयत्नं करोति स्म
करोमि स्म
करोमि स्म
भगिनि भगिनि ऐ हाव् वन् क्वश्चन् इस् दिस् करेक्ट् मम बाल्यकाले अहं वृक्षे आरोहणं करोमि स्म
वृक्षम् आरोहणं करोमि
ओके
वृक्षं
धन्यवादः
आक्चुलि भगिनि द करेक्ट् वे इस् वृक्षस्य आरोहणं करोमि वृक्षस्य आरोहणं करोमि अथवा वृक्षम् आरोहयामि स्म अस्तु सो बिकास् देर् इस् अ रूल् वेन् वि यूस् पठनं करोमि आरोहणं करोमि लैक् देट् वाट् एवर् दि आब्जेक्ट् इस् दट् गोस् इन् टु षष्टि विभक्ति दट् इस् द रूल् पाठस्य पठनं करोमि लैक् देट् अस्तु उत्तमं सो अत्र एकनिमिषं भगिनि नारायणमूर्ति यु सेड् ऐ हाव् बीन् ट्रैङ्ग् टु लर्न् संस्कृतं फर् फैव् इयर्स् रैट् सो देट् इस् आल्मोस्ट् बिकमिङ्ग् अ प्रेसेण्ट् टेन्स् महोदय सो अत्र स्म न आगच्छति अहं पञ्चवर्ष आरभ्य अहं संस्कृतपठनार्थं प्रयत्नं करोमि सो यु आर् स्टिल् डूयिङ्ग् इट्
दट्स् अ कण्टिन्यूस् पास्ट् कण्टिन्यूस् फर् द पास्ट् फैव् इयर्स् ऐ हव् बीन् ट्रैङ्ग् टु स्पीक् वदतुं संस्कृतं
वक्तुं प्रयत्नं करोमि एव करोमि स्म न आगच्छति सो इफ् यु वाण्ट् टु करोमि स्म देन् यु हेव् टु डू संथिङ्ग् लैक् पञ्चवर्षात् पूर्वं लैक् देट् I was
I meant for the past 5 years I have been
that means you are still doing it
yes, that's true correct
Asta.
We cannot use sma there
no you cannot use sma there you think of another sentence with sma okay so you keep thinking I'll go to Srinivasa Mahoday let's see if he has now
भगिनी
एकनिमिषं भगिनी श्रीनिवासमहोदय अनन्तरं गोपिका भगिनी अनन्तरं भवती वदतु श्रीनिवासमहोदय अस्ति वा नो चेत् गोपिका भगिनी पृच्छामि अस्ति वा उत्तम
मोदकं खादितुम् इच्छामि स्म
ओ उत्तमम् इदानीं
स्वीट् पर्सन्
अस्तु उत्तमम् उत्तमपिका भगिनी
ध्वनिः आगच्छति भगिनि
आम् आम् अहं सर्वाणि म्यूट् करोमि कृपया अस्तु
पुरातनकाले लेखकाः
बहवः सुभाषितानि लिखन्ति स्म.
उत्तमं लिखन्ति स्म. उत्तमं.
धन्यवादः.
धन्यवादः. अस्तु, सागरी भगिनी वदतु.
मम बाल्यकाले अहं नर्तनं करोमि स्म. सम्यक् वा?
सम्यक् भगिनि, सम्यक्.
अस्तु अस्तु
भगिनी. सौन्दरम् इस् इस् करेक्ट् प्लीस्ति. गतमासे अहं चेन्नै नगरे अस्मि स्म. इस् इस् करेक्ट्.
सो
नौ ऐ एम् नाट् इन् चेन्नै.
No, so no, when you're so saying something like, okay, I'm getting a lot of echo, I'm going to mute you. Astu, dhanyavadah. So, atra bhagini, gata maase aham Chennai nagare asam meva, I was.
Namaskaram bhagini, permission here. I had some problem, now I joined.
Uttamam mahodaya. So, Saundaram bhagini, so you can say in Chennai, I was in Chennai, hello. But if you are saying something else, I was eating in a restaurant, then you can say gatamase yada aham Chennai nagaram gatavati tada aham bhojanashalaya khadami sma. So when you're saying like that, you have to set a scene first. When that happened, at that time I was doing this.
Astu bhagini.
Astu. Vadatu.
Corona purvam sarve bahuni china vastuni krinanti sma.
Uttama. So yeah, so when you say purvam, you have to use panchami. Corona rogat purvam. Rogat purvam. Astu.
Corona rogat purvam.
Uttama.
Yada aham tasya griham agatavati che.
Agatavati eva. You cannot mix up yada and chet. Yada aham.
भवान् किं करोति स्म?
उत्तमम् उत्तमं, बहु उत्तमं, पर्फेक्ट्. अस्तु, परमेश्वर महोदय वदति वा?
सारी, द ओन्लि प्रोब्लम् इस् मै नेम् इस् आन् टाप् ब्लाकिङ्ग् वाट् इस् रिटन् there. I can't see.
I don't think we are doing anything now, Mahodaya. So you can try something. So you
choose.
Mama balye.
Mama balye aham ashwa chakada yanena vidyalayam gachya gachabi.
So when you say aham, how will you say aham?
Gachami.
Uttama.
Bhagini.
Bhagini.
Can I frame a sentence?
Yes.
Bhagini, mama balya kale aham vaidyam bhavatum ichami sma.
Bhavitum ichami sma. Uttama.
Vaidyam bhavitum ichami sma, right?
Uttama. So because you are a female, vaidyam,
vaidyam bhavitum
ichami sma. Uttamam bhagini.
Dhanyavadam.
Narayan Murthyam. That sentence was wrong. So shall I have formulae? Mama balye aham patshale nidrami sma.
Wow, uttamam. Patshalayam nidrami sma. Patshalayam nidrami sma.
Patshalayam eva.
Uttamam.
Uttamam nahi, very bad. You can't see in the class.
Very bad, but good sentence. Yeah. Uttamam. Astu.
Bhagini, can I try one?
अस्तु वदतु.
यदा भरतः अयोध्यानगरम् आगच्छति तदा सः मातुः दुःखः पश्यति स्म
दुःखेन दुःखेन सो यदा भरतः अयोध्यानगरम् आगतवान्
तदा सः मातुः दुःखेन पश्यति स्म
तदा तस्य माता दुःखेन पश्यति स्म उत्तमम् दुःखेन वा सन्तोषेण वा सन्तोषेण खलु दुःखेन अस्तु किमपि अस्तु अग्रे गच्छामः वा त्वान्तं पदं सो अत्र त्वान्तं यदा वयं कार्यद्वयं कुर्मः तत्र प्रथम कार्यस्य रूपं त्वा भवति सो अत्र बृहत् वाक्यमस्ति शिशुः क्रीडाङ्गणे पतति रोदनं करोति एकमेव लघुवाक्येन वक्तुम् इच्छामः चेत् शिशुः क्रीडाङ्गणे पतित्वा रोदनं करोति पतित्वा क्रीडाङ्गणे पतित्वा रोदनं करोति इत्युक्ते प्रथमवाक्यं प्रथमक्रियापदं समापयित्वा द्वितीयक्रिया कुर्मः वयं फलं खादितवान् जलं पीतवान् प्रथमं खादित्वा अनन्तरं पिबति इति अथवा पीतवान् इति अर्थ खादित्वा पीतवान् सो अत्र वर्तमानकाल एकवचनं वर्तमानकाल बहुवचनं ओके अनन्तरं भूतकाल खादितवान् अत्र आज्ञा पिबतु अपि च भविष्यत्काल नास्ति परन्तु भविष्यत्काल अस्ति चेत् अपि एकमेव रूपं कृत्वा पतित्वा अत्र अहं फलं खादित्वा जलं पिबामि अहं फलं खादित्वा जलं पीतवती अहं जलं खादित्वा फलं खादित्वा जलं पास्यामि भविष्यत्काले अपि खादित्वा एव आगच्छति सो अतः एतानि रूपाणि वयम् अव्ययानि इति वदामः परिवर्तनं न भवति एव नैव भवति खादित्वा अते फलं खादितवन्तः जलं पीतवन्तः इति अस्ति चेत् अपि खादित्वा एव ते फलं खादित्वा जलं पीतवन्तः आज्ञा अस्ति चेत् कथं भवति किञ्चित् पानीयं पिबतु अनन्तरं गच्छतु किञ्चित् पानीयं पीत्वा अनन्तरं गच्छतु अहं पानीयं पीत्वा गच्छामि ते पानीयं
lot of disturbance in your voice
oh
you get break
that's not good
but I don't have that problem
the problem is for my end
yeah it must be yours because in my I get it very clearly
Bhagini, last week I had this problem. There was a lot of breaking. Today it's okay.
It's clear, Bhagini.
Okay. All right. Okay. So I'll just explain it one more time in a short way. So the rupam, if I say kaditva or pitva, so that rupam does not change no matter how the sentence is constructed. वर्तमानकाल एकवचने अथवा बहुवचने वा अथवा भूतकाले वा स्त्रीलिङ्गं वा पुल्लिङ्गं वा भविष्यत्काल वा अथवा आर्डर् वा आज्ञा लोट्लकार आज्ञा वा किमपि भवतु पीत्वा खादित्वा कृत्वा लिखित्वा एव भवति. दट् इस् रूल् नम्बर् ऐ मीन् वन् आफ् द रूल्स्. अन्य नियमः अस्ति, एकम् एव ऐ मीन् एकः एव कर्ता, ओन्ली वन् पर्सन् शुड् डू एव्रिथिङ्ग् शृङ्गलारूपेण, एस् अ चैन्, फस्ट् दिस् नेक्स्ट् देट् नेक्स्ट् देट् नेक्स्ट् देट् लैक् देट्. अहं खादामि, सः पिबति इति वाक्यमस्ति चेत् अहं खादित्वा सः पिबति इति वक्तुं न शक्नुमः. अहमेव खादामि, अहमेव पिबामि इति अस्ति चेत् एव अहं खादित्वा पिबामि इति वक्तुम् अर्हति. ओके, अन्य नियमः अस्ति उपसर्गः. उपसर्गः इत्युक्ते गच्छति, आगच्छति, आ इति उपसर्गः. करोति, स्वीकरोति, स्वी इति उपसर्गः. उपसर्ग अस्ति चेत् त्वा इति स्थाने य आगच्छति, य. सः गत्वा खादति, सः आगत्य खादति. सः कार्यं कृत्वा गच्छति, सः फलं स्वीकृत्य खादति. सो त्वा स्थाने य आगच्छति. कुत्र उपसर्गः अस्ति चेत्, उपसर्गः इत्युक्ते किं, क्रियापदस्य पूर्वं आ प्र नि इत्यादि योजयामः चेत् तत् उपसर्ग. अत्र गच्छति, आगच्छति, सो अत्र य य भवति. करोति, कृत्वा. स्वीकरोति, स्वीकृत्य इति अस्ति. स्पष्टं वा? उत्तमं. सो ऐ वुड् लैक् टु डू समथिङ्ग् एल्स् टुडे अण्ड् देन् वी विल् डू अ कम्बैन्ड् बिकास् दिस् इस् रिलेटेड् टु दट्. सो अन्य ओके, अन्यपाठः अस्ति तुमुन् इति. तुमुन्, सो नारायणमूर्तिमहोदय हेड् आल्रेडि यूस्ड् तुमुन्, सो हि नोस् दिस्. तुमुन् इत्युक्ते आवरणे. आवरणे इत्युक्ते विदिन् द ब्राकेट्स्, आवरणे सप्तमी तत्र. आवरणे विद्यमानस्य क्रियापदस्य उचितरूपम्. ओके, सो अत्र ऐ विल् गो टु मै द पवर् पायिण्ट् नौ. अस्तु, सो अत्र वयं त्वान्तरूपं पठितवान्. त्वा कुत्र योजयामः, क्रियापदस्य पूर्वं वा अनन्तरं वा?
अनन्तरं.
सो वाट् एवर् वि आड् अनन्तरं, दट् इस् काल्ड् अ प्रत्ययः. एक्चुलि प्रत्ययः. पूर्वं योजयामः चेत् उपसर्गः. So this is a pratyaya. Tumun is also a pratyaya, like twa pratyaya, like the tavatu pratyaya. When we learnt the past tense, yada vayam bhutakala vishaye patitavantah, tada tavatu pratyayam vishaye patitavantah vayam. Tavatu ityukte katam bhavati, saha patati,
patitavan.
Patitavan. पठितवान्. सो वयं रूपं पश्यामः चेत् पठितवान्, त्वा प्रत्यय पठित्वा. सो इट्स् वेरि रिलेटेड्. एकनिमिषम् अहं दर्शयामि. सो अत्र गतवान् इति अस्ति. गतवान् भूतकालरूप. त्वा प्रत्यय गत्वा गत्वा आगतवान् आगत्य पठितवान् पठित्वा लिखति इति अस्ति अस्ति वा एकनिमिषं लिखति कुत्र अस्ति लिखति 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 लिखितवान् लिखित्वा इति अस्ति लिखित्वा इति अस्ति सो अत्र रूपम् इस् वेरि क्लोस्लि रिलेटेड् टु द भूतकाल किमर्थम् इत्युक्ते वन् इस् त्वा प्रत्यय दि अदर् वन् इस् तवतु प्रत्यय तवतु दिस् इस् ओन्लि त्वा ओके सो अत्र तुमुन् प्रति गच्छामः तुमुन् इस् आल्सो अ प्रत्यय तुमुन् बालकः विद्यालयं गच्छति पाठं पठति सो अत्र प्रश्नः उदयति किमर्थं बालकः विद्यालयं गच्छति बालकः पाठं पठितुं विद्यालयं गच्छति ओके किमर्थं किमर्थं विद्यालयं गच्छति पठनार्थं गच्छति अथवा पठितुं गच्छति We can say both. बालकः पाठं पठितुं विद्यालयं गच्छति अथवा पाठं पठनार्थम् अहं म्यूट् करोमि वा अस्तु सो अत्र बालकः पाठं पठितुं विद्यालयं गच्छति इफ् यु वाण्ट् टु यूस् द त्वा प्रत्यय हौ विल् वि से
बालकः पाठं पठित्वा विद्यालयं गच्छति
पठित्वा विद्यालयं गत्वा पाठं पठति विद्यालयं गत्वा पाठं पठति सो विच् एवर् द थिङ्ग् शुड् बि कम्प्लीटेड् फस्ट् विल् टेक् द त्वा प्रत्यय बालकः विद्यालयं गत्वा पाठं पठति किमर्थं विद्यालयं गच्छति बालकः पाठं पठितुं विद्यालयं गच्छति वेरि इण्ट्रेस्टिङ्ग् खलु ऐ लव् दिस् बालिका क्रीडाङ्गणं गच्छति व्यायामं करोति व्यायामम् इत्युक्ते एक्ससैस् व्यायामं करोति बालिका क्रीडाङ्गणं गत्वा व्यायामं करोति किमर्थं बालिका क्रीडाङ्गणं गच्छति बालिका व्यायामं कर्तुं क्रीडाङ्गणं गच्छति सो यत्र वयं तुम् इति योजयामः दट् इस् काल्ड् तुमुन् प्रत्यय तुमुन् तुमुन् प्रत्यय बालिका कूपीं स्वीकरोति जलं पिबति हौ विल् वि यूस् द त्वा प्रत्यय हियर्
बालिका
उत्तम उत्तम बालिका कूपीं स्वीकृत्य जलं पिबति तुमुन् इति उपयोगं कुर्मः चेत् द्वितीयकार्यं प्रथमम् आगच्छति इत्युक्ते इण्टेन्शन् वै किमर्थम् इति प्रश्नस्य उत्तरं बालिका जलं पातुं कूपीं स्वीकरोति अस्तु सो अत्र कर्तुं गत्वा इति न आगच्छति तुमुन् वा त्वान्तं वा एदर् तुमुन् आर् त्वान्तं बालिका कोऽपि वदतु भगिनि प्रश्नः
आं भगिनि पातुं सुलि नडसन्ति पिबति पीतुं चेञ्जस् पातुं
उत्तमप्रश्नः सो सो फार् एनी न्यू थिङ्ग् भगिनि वि नीड् टु नो द फार्म् रूपम् ओके एण्ड् आल्सो वेन् टु यूस् नौ वि लर्न्ट् वेन् टु यूस् इट् खलु सो हौ डु वि गेट् द फार्म् वाट् इस् द फ्यूचर् टेन्स् आफ् पिबति
पिबिष्यति
पास्यति सो द तुमुन् प्रत्यय इस् क्लोस्लि रिलेटेड् टु भविष्यत् कालरूपम् सो दिस् इस् अ गुड् रिव्यू आफ् भविष्यत् काल आल्सो सो द त्वान्तम् इस् वेरि क्लोस्लि रिलेटेड् टु पास्ट् टेन्स् The tumun is related to future tense, right? So, to do that, I am doing this. To eat, I am doing cooking. How will you say?
Kaatum, right?
Kaaditum.
Kaaditum.
Kaadishyami. Kaaditum.
Kaaditum. पाकं करोमि
खादितुं पाकं करोमि ओके अस्तु बालिका पयोहिमं खादितुं क्रीणाति किमर्थं क्रीणाति खादितुं
क्रीणाति बैस्
बैस् वै इस् हि बैङ्ग् खादितुं खादितुं हौ विल् यु यूस् द त्वा प्रत्यय हियर् बालकः
खादति
क्रीत्वा फस्ट् हि बैस् क्रीत्वा हौ डु वि नो द रूपं क्रीत्वा क्रीतवान् क्रीतवान् इस् द पास्ट् टेन्स् रूपं क्रीतवान् सपोसिङ्ग् ऐम् आस्किङ्ग् अ क्वश्चन् बालकः लैक्स् टु बै टु बै लैक्स् टु बै पयोहिमम्
बालकः पयोहिमं क्रीतुं इच्छति
द क्रीतुम् इस् नाट् करेक्ट् भगिनि हौ विल् यु से दट् हौ विल् यु से द रूपम् इन् भविष्यत् काल क्रेष्यति खलु क्रेष्यति इस् द भविष्यत् कालरूपं क्रेष्यति सो सो क्रेतुं क्रेतुम् इच्छति सो द सो कमिङ्ग् अप् वित् द रूपं विल् बि अ लिटिल् डिफिकल्ट् बट् नो नो इट् मेक्स् गुड् सेण्टेन्स् महोदय that is correct so whenever we say to do something like I am able to speak I like to eat I want to buy so at this time it doesn't answer the question kimartham so this is a new usage for it
kimartham is understood
no here this is a different usage for tumal yeah this is a different usage for tumal like I love to watch movies aham chalana chitram
prishtum
drashtum icchami
okay. I like to okay
drashtum icchami okay अहं निद्रां कर्तुम् इच्छामि अहं द्विचक्रिकां चालयितुम् इच्छामि एण्ड् वी केन् आल्सो यूस् इट् फार् शक्नोति आर् शक्नोमि ऐ केन् स्पीक् संस्कृत हौ विल् यु से
अहं संस्कृतं वक्तुं शक्नोमि
उत्तमम् vaktum shaknomi. So when we say ichchami, shaknomi, all that, we can use the tumun pratyaya. So these are all the vishesha rupani. Upavishati, upaveshtum iti. Asti, bhavitum, grahitum, ahvatum. So krinati, kretum. Uttishtati, uttatum. How do we know? By using it a lot, we will know. Pibati, patum. Milati, melitum. Melishyati is the bhavishyat kala rupam. Ahvatum, ahvasyati. Grahitum, grahishyati. Bhavishyati, bhavitum. Upavishati, this is different, upaveshtum. Prapnoti, praptum. We say, right, that is my praptam. Praptum. I like to get it. Praptum arhati. Prichyati, prashtum ichami. I would like to ask a question. Aham prashnam prashtum ichami. Okay, now we can have some abhyasa. Jalam pibati chashakaha avashyakaha. Gopika bhagini vadati va?
Jalam patum chashakaha avashyakaha.
Uttama. Jalam patum. Pasyati patum. Sharada bhagini, aham.
I can't see the screen, bhagini.
Oh, kimartam?
I don't know. You can tell me the sentence.
Okay. Aham, likati is the word. You have to come up with the form. Lekanim anitavan. Kimartam lekanim anitavan? Aham. Lekitum.
Aham lekitum.
Lekitum lekanim anitavan. Anitavati. Uttama. Lekitum. Katam janimah lekitum lekishyami iti bhavishyat kala rupam. So lekitum.
Lekitum.
Astu. Sagari bhagini. Janaha.
Janaha natakam drishtum.
Drashtum. Dra. It becomes a dra.
Drashtum. Drashtum icchanti.
Drashtum icchanti. Uttama. Drashtum icchanti. Ketaki bhagini agrima vakya.
Uma vastuni aniyati apanam gatavati. Uma vastuni anishyati.
Aneshyati is the bhavishyat kala. From there you have to get the tumun pratyaya.
Anetum apanam gatavati.
Anetum apanam gatavati. Uttama.
Bina
bhagini. Swagatam. Bina bhagini.
Balakaha chakleham khaditi khadishyati. So khaditum.
Uttama. Khaditum.
Apanam gacchati.
Uttama. Chakleham khaditum. Uttamam bhagini. I like how you derive the rupa. Uttama. Savita bhagini.
Yes, bhagini. Balika apanam gacchati phalam svikaroti. Balika apanam
gatum. So atra bagini that so if you're going the apanam way, you have to say the gatva phalam svikaroti. Balika apanam gatva phalam
svikaroti. Balika apanam gatva phalam svikaroti.
So how will you say the other way? Balika kimartam phalam svikaroti. No. Balika kimartam apanam gacchati.
Phalam svikritva apanam gacchati.
Svikritva na. Svikartum.
Svikartum apanam gacchati.
Avagatam
va? Balika phalam svikritva apanam gacchati.
Svikritva na. Svikritva means after taking it, he went to the apanam. Then there's no use going to the apanam. ओके भगिनि अहं पृच्छामि बालिका किमर्थम् आपणं गच्छति
फलं स्वीकर्तुं
पुनः वदतु करेक्ट् भगिनि पुनः वदतु बालिका
फलं स्वीकर्तुम् आपणं गच्छति
स्वीकर्तुम् आपणं
गच्छति
उत्तमं बाल सो एतत् अत्र वाक्यद्वयम् अस्ति प्रथमम् आपणं गच्छति अनन्तरं फलं स्वीकरोति सो अत्र बालिका आपणं गत्वा फलं स्वीकरोति बालिका किमर्थम् आपणं गच्छति
बालिका फलं
स्वीकर्तुम् आपणं
गच्छति
वि केन् से गत्वा बालिका आपणं गत्वा फलं स्वीकरोति बट् वि आर् टाकिङ्ग् अबौट् तुमुन् नौ खलु सो फर् तुमुन् The second sentence has to be said first.
Okay. I got you.
Balika phalam svikartum apanam gacchati.
Yes. Dhanyavada.
Uttam. Avagacchati va Sagari Bhagini kalo? No, Sagari Bhagini. No, Savita
Bhagini. Savita.
Savita Bhagini.
Yes, Bhagini.
Astu. Anya Uma Reddy Bhagini.
आं भगिनि सः क्रीडाङ्गणं गच्छति पादकन्दुकं क्रीडति सः क्रीडाङ्गणं गच्छति
न अहं पृच्छामि या देट् इस् करेक्ट् सः किमर्थं क्रीडाङ्गणं गच्छति
सः किमर्थं क्रीडाङ्गणं गच्छति
देट् इस् द क्वश्चन् ऐ एम् आस्किङ्ग् यू
सः क्रीडाङ्गणं
क्रीडाङ्गणं न प्रथमं यु हाव् टु टेल् द सेकेण्ड् वन्
ओके सः पादकन्दुकं क्रीडितुं क्रीडाङ्गणं गच्छति
उत्तमं सः पादकन्दुकं क्रीडितुं क्रीडाङ्गणं गच्छति अवगच्छति वा भगिनि
यस् भगिनि
उत्तमम् So, atra, we can just pick some sentences here. Uma Krishnan Bhagini. Whichever you want to choose. Oh. Balakaha Kridati finished. Amba Bhojanam Karoti. Okay, this is...
Amba Bhojanam Kretum
करोति खलु करोति
कर्तुं
कर्तुं
पाकं करोति
पाकं करोति अस्तु वयम् अभ्यासपुस्तकं पश्यामः इदानीं अस्तु अत्र उषा भगिनि उमाकृष्णन् भगिनि सारि उमाकृष्णन् भगिनि रमेशः क्रीडति क्रीडाङ्गणं गच्छति रमेशः क्रीडितुं क्रीडाङ्गणं गच्छति अस्तु एतत् वदतु भगिनि उमेशः
उमेशः वस्तूनि आनयितुम्
आनेतुं भूतकालरूपमिति आनेष्यति आनेतुम् उत्तमम् आपणं गच्छति अस्तु उषा भगिनी उषा भगिनी
सः अस्वस्थः अतः कार्यं कर्तुं न शक्नोति
उत्तमं कर्तुं न शक्नोति कर्तुं न शक्नोति रम्या भगिनी Can you do the fourth one? Chaturtham vakyam patati va? Janaha
natakam drashtum icchanti.
Icchanti. So icchanti, shaknoti, all that we can use the tumun pratyaya. And also for kimartam. Uttama. Astu.
Bhagini? Smarati va? Danmantri amritam aniya rogam nivar.
Aniya, that is the lyabantam, lyabantam rogam, uttamam bhagini.
Purvam eva vayam. Upayogam kritya. Bahu dhanyavad. Bhagini, janaha natakam pashyati. Pashyatumu.
No, so how will you say the How will you say the Bhavishyat Kala Rupam, Bhagini? Drakshyati. Drakshyati. So, atra drashtum iti agachyati. So, we use the Bhavishyat Kala. Because this is something like Bhavishyat Kala, right? I want to go there. Aham tatra gantum ichami. I want to see. Aham drashtum ichami. So something in the past, something in the future, not past, future. Something in the future.
That is janaha natakaha.
Natakam.
Pashyati means tumun word. Pashyati.
Yeah, it will become drashtum. Drashtum, drashtum okay. Ichanti.
Okay.
Drashtum ichanti. And that is how it becomes. So how do we find... Okay, I want to go through the others before I come here. Ekanimsham. Astu. Sangeetam sunoti bhavan kutra... गच्छति ज्योति भगिनी
आं भगिनि सङ्गीतं श्रोतुं भवान् कुत्र गच्छति
सो वाट् डस् इट् मीन् भगिनि सङ्गीतं
श्रोतु
टु हियर् वेनेवर् वी हेव् टु हियर् वी यूस् द तुमन् फार्म् उत्तमं भगिनि धन्यवादः सङ्गीतं श्रोतुं भवान् कुत्र गच्छति उत्तमं भगिनि श्रीनिवास महोदय this we already have it in the other one. Now we go for the Parivartana Abhyasaha. Kapilaha Granthalayam Gatva Grantham Patati. Kapilaha Grantham Patitum Granthalayam Gacchati. सर्वे अवगच्छन्ति वा?
आं भगिनि.
त्वान्ततः तुमुनन्तं, तुमुनन्तंतः त्वान्तं. अस्तु. गौरी सखी गृहं गत्वा पुस्तकम् आनयति. श्रीनिवास महोदय कथं परिवर्तनं भवति अत्र?
गौरी पुस्तकम् आनयतुम्
आनेतुम् आनेतुम्
गौरी पुस्तकम् आनेतुं सखी गृहं गतवती.
हा उत्तमम्. अत्र गच्छति आनयति गच्छति
गच्छति
गच्छति पुस्तकम् आनेतुं सखी गृहं गच्छति. सर्वे अवगच्छन्ति वा? नो चेत् पृच्छन्तु. अस्तु महेश महोदय.
चित्रकारः चित्रं लिखित्वा धनं सम्पादयति. चित्रकारः धनं सम्पादयितुं चित्रं लिखति.
उत्तमं. लिखति धनं सम्पादयितुं चित्रं लिखति. अस्तु उत्तमं महोदय. मालति मालति भगिनि.
एकनिमिषं भगिनि, इण्टर्नेट् मध्ये क्लेशम् आगच्छति. अद्य ओके. चित्रकारः धनं सम्पादयितुं चित्रं लिखति.
उत्तमम् उत्तममेव.
धन्यवाद धन्यवाद.
मालति भगिनी.
बालिका सम्यक् पठित्वा उत्तीर्णा भवति. बालिका सम्यक्
उत्तीर्णा.
ओ बालिका उत्तीर्णा
भवितुम्
ओ उत्तीर्णा भवितुं पठति.
सम्यक् पठति बालिका. उत्तीर्णा भवितुं
भवितुं.
पुनः पुनः वदतु भगिनि. बालिका
बालिका उत्तीर्णा भवितुं सम्यक् पठति.
उत्तीर्णा भवितुं सम्यक् पठति. उत्तमम्.
उत्तीर्णार्थं किं
टु पास् इन् दि एक्साम्. टु बि.
धन्यवादः.
अस्तु नारायणमूर्ति महोदय.
एषः शुद्ध भवितुं स्नानं करोति.
उत्तमं. शुद्धः भवितुं स्नानं करोति.
उत्तमः. भवितुं स्नानं करोति.
स्नानं करोति. उत्तमम्.
अस्तु भगिनी, भगिनी अहं वक्तुम् इच्छामि.
सौन्दरं खलु? ऐ वास् गोयिङ्ग् टु काल् योर् नेम् नेक्स्ट् भगिनी. सौन्दरं. सो अत्र सम्यक् विचारं कृत्वा कार्यं करोतु.
हलो, इस् इट् फार् मी मेडम्?
आमाम् आम्
आम् ओके. सम्यक् विचारं कृत्वा कार्यं करोतु. कार्यं कर्तुं सम्यक् विचारं करोतु.
उत्तमम्. कार्यं कर्तुं सम्यक् विचारं करोतु.
उत्तमम्. सम्यक् कार्यं कर्तुं विचारं करोति आल्सो इस् ओके.
या बट् सम्यक् विचारं करोतु इस् द थिङ्ग्, द की ऐ थिङ्क्. या यु केन् डू बोत्. सम्यक् कार्यं कर्तुं सम्यक् विचारं करोतु. ऐ थिङ्क् सो. जस्ट् कार्यं यु केन् डू बोत्. सम्यक् कार्यं कर्तुं सम्यक् विचारं करोतु और् कार्यं कर्तुं सम्यक् विचारं करोतु. अस्तु. परमेश्वर महोदय. ओ नास्ति वा? अस्तु. सो वयम् इदानीं किं कुर्मः, वि गो टु
परमेश्वर.
ओ अस्ति वा, उत्तमम्. एकनिमिषं महोदय, अहं कुत्र अस्मि इति. अस्तु.
Which one is that?
You can do anything. Mahabharatam patitva aham anekah kathah janami.
Anekah kathah janatvam aham Mahabharatam padati.
Patami.
Sorry, patami.
Patami. The only thing is, for janami, the tumun form, how will you say it in bhavishyat kala?
Nashyati.
So it will become nyatum. So we get jnanam from that. Jnanam.
Okay.
So jnanam. Jnatum. Anekah kathah jnatum aham Mahabharatam patami. महाभारतं पठामि. अन्य कोऽपि अस्ति वा यः न अभ्यासं कृतवन्तः? अस्तु, इतोपि अधिकम् अभ्यासं कुर्मः वयम्. अस्तु, अत्र त्वान्तरूपं तः तुमन् रूपं करणीयं. कार्यकर्ता पाठशालां गत्वा पाकं करोति. गोपिका भगिनी वदति वा?
आम्, पाकं कर्तुं कार्यकर्ता पाकशालां गच्छति.
पाकशालां गच्छति. ओके, ट्रै not to look at the right side.
I am zoom kritavati. Oh, na pashyami.
Uttama. Uttama. Astu. Bhagini patrikam swikritya patati. Astu. Sharada Bhagini.
Can you repeat, Bhagini? I can't see
the... Oh, you cannot see. Astu. भगिनी पत्रिकां स्वीकृत्य पठति. पठितुम्. उत्तम. पत्रिकां स्वीकरोति. उत्तमम्. सागरी भगिनी.
अशोकः निर्घनान् आहूय वस्त्रं ददाति. अशोकः वस्त्रं दातुम्
उत्तमम्.
दातुं निर्धनान् आहूति.
आह्वयति एव. आह्वयति.
आह्वयति.
निर्धनान् आह्वयति. अस्तु. सागरी भगिनी.
भगिनी,
प्रश्नः वा? नो नो नो, दिस् सम्बडी हेड् डन् द स्लैड्, सो ऐ जस्ट् टुक् इट् फ्रम् देम्.
Aakvayati with visargam. Without visargam, it will be what will be the original word?
No, aakvayati, right? So you are talking about the upasarga. Upasarga.
What is the original word?
Khvayati means, actually, I do not know.
Okay, because aakvayati is the most common word. Since I saw the ya here,
Correct. Yeah, so we can check the meaning and then I'll tell you.
I'll find out.
Khvayati.
Are all the words with a should be visarga? Aisa kuch hai kya?
अस्तु महोदय, वी केन् डेफिनेट्लि मेक् दट् असम्प्शन्. यस् अस्तु अस्तु. अत्र सर्वे अवगच्छन्ति चेत् वयम् एकं कथां पठामः. Somebody was telling me that, you know, we can read a story. Ek nimsham kutra asti iti aham pashyami. So this is a very nice story. So I was telling you that the last time about that katha mala, right? Katha mala. So every day they will read a story and they will explain. So this is a very simple story. Kolkata nagare kinchana gramam, I mean kinchana griham. Kolkata nagare kinchana griham. So when we use kinchana, so we have this chana added to it. So I'm going to mute everybody, please. There is a lot of noise. Asto. So whenever I make a sentence, ekam griham asti, what question will come to your mind? Kim griham, about the griham, kim griham. So I can just say kim chana griham or kim chit griham. That means I'm saying some unspecified house. कोल्कता नगरे किञ्चन गृहं. गृहस्य स्वामिनी, स्वामिनी मीन्स् दि ओनर् आर् द लेडि आफ् द हौस्. स्वामिनी एकदा मीन्स् अट् वन् टैम् पुत्रस्य प्रकोष्ठं प्रविष्टवती. पुत्रस्य द सन्स् प्रकोष्ठं मीन्स् रूम्. प्रविष्टवती एण्टर् प्रविष्टवती पुत्रस्य पुस्तकानां निधानिकातः पिपीलिकाः पङ्क्तिशः आगच्छन्ति स्म. पुत्रस्य पुस्तकानां निधानिकातः, पुस्तकानाम् इस् द बहुवचनम् आफ् पुस्तकस्य. पुस्तकस्य निधानिका, निधानिका इस् कबर्ड्. पुस्तकानां निधानिकातः, सो the cupboard where he keeps all the books. Pustakanam nidhanikatah, from the cupboard. So you see the picture here, nidhanikatah. Pipilikah, ants. Panktishah, so we have the panktishah means in a row. Panktishah agachanti sma, they were coming out. Coming out, how do we know? Nidhanikatah. Tat drishtva, after seeing this, Tvantarupam. Drishtva. Sa ascharya chakita, she was surprised. Ascharya chakita. Yataha, we haven't learnt yataha, we will be learning soon. Yataha means because. Yataha, putrasya prakoshtaha, सर्वदा स्वच्छः भवति स्म. इट् आल्वेस् यूस्ड् टु बी क्लीन्. पुत्रस्य प्रकोष्ठः सर्वदा आल्वेस् स्वच्छः क्लीन् भवति स्म. अत्र कथं पिपीलिकाः आगताः? शीस् आस्किङ्ग्. प्रायः वि लर्न् दिस् आल्सो. प्राबब्लि निधानिकायां, निधानिकायां, वाट् इस् द विभक्ति हियर्? निधानिकायां
सप्तमी.
निधानिकायां कोऽपि मीन्स् सम्, कः अपि कीटः मीन्स् इन्सेक्ट्. मृतः डेड् स्यात् गोस् वित् प्रायः प्राबब्लि. probably some insect is dead iti chintitavati chintayanti sa. This is also another form, like while thinking. This is while thinking. As she was thinking, pustakani nishkasya. This is lyabantam. Nishkasya drishtavati. She took out all the books. Pustakani nishkasya drishtavati. While she was thinking that probably some insect is dead. Akasmat, suddenly, sa pustakanam madhye, in the middle of the books. Pustakasya. Pustakasya vamataha, pustakasya dakshinataha, pustakanam madhye, in the middle of the books. Stapitam rotika drishtavati. She saw two rotikas. Rotika dvayam. Drishtavati. Madhye stapitam. Which was kept in the middle of the books. Tataha. From that, eva pipilikanam panktihi arabdha asit. From there only the line of ants started. Arabdha asit. Taha pipilikaha rotika taha. Okay. So she took the pipilika from the rotika khanam trotayitva nayanti sma. So she got rid of the pipilika from the rotika. And then she took the rotika. Nayanti sma. So not she, they. That is pipilikaha. Rotika taha. Khanam. Pieces. Trotayitva. After cutting it, tvantam. After cutting it to pieces, tvantam. Nayanti sma. They were carrying it away, piece by piece. Sa janati sma. She knew yet that putrasya pratyekasmin karye. In every work that he does, karye api kaschana uddeshah, there is some intention. Bhavati iti. So here again you are seeing kaschana chana. Kaha uddeshah, what intention? Some intention. So whenever we want to say some unspecified thing, we ask the question, and to the question we add chana. Kaha uddeshah. Kaschana uddeshah bhavati iti. Kintu evam rotikayah. Like this. Evam means like this. Like this. Rotikayah gopane. Rotikayah shashti. Gopane means hiding. In hiding the rotika, kaha uddeshah syat. What can probably be the intention? Putrasya agamana anantaram. After the boy's coming. Agamana anantaram. Agamana anantaram. Tam eva prichami. I will ask him only. Tam eva prichami. Iti sa nischitavati. She decided. Tavati kale. In the meanwhile, I mean as she was doing, putrah vidyalayatah agatya lyapantam swaprakoshtam pravishtavan. He came to his room. Nidanikayah samipe mataram drishtavan. So here it's not sma, drishtavan. Tam drishtva twantam. Drishtva mata kopena. Tritiya, kim bhavataha matihi samyak nasti. Are you not thinking clearly? What happened to you? Kimartam bhavan nidanikayam etaha rotikaha gopitavan. Why did you hide these rotikas? म्लानमुखः विद् अ सैड फेस पुत्रः अम्ब भवती ताः रोटिकाः निधानिकातः निष्कासयतु थ्रो इट अवे निष्कासयतु रोटिकाः बहुवचनम् आफ् रोटिका द्वितीया विभक्ति निष्कासयतु इतः इतः परं फ्रम् नौ आन्वर्ड्स् इतः परं तासाम् आवश्यकता कापि नास्ति तासां दट् इस् द बहुवचनम् आफ् रोटिकास् सर्वनामपदम् तस्याः तयोः तासां तस्याः आवश्यकता नास्ति कोऽपि कापि का बिकास् आफ् रोटिका कोऽपि इफ् इट् इस् पुल्लिङ्ग दिस् इस् स्त्रीलिङ्ग सो इस् कापि नास्ति इति वदन् एस् हि वास् सेयिङ्ग् रोदनम् आरब्धवान् हि स्टार्टेड् टु क्रै एस् हि वास् सेयिङ्ग् so this is another rupam we may not learn it now vadan eva rodanam arabdhavan putrasya nayanayoh this is dvivachana ashruni from his eyes ashruni drishtva tears drishtva after seeing tasyah kopah apagatah her anger went away सा प्रीत्या तृतीया विभक्ति प्रीत्या तस्य अश्रूणि मार्जयन्ति शि वैप्ड् अवे हिस् टियर्स् वत्स वत्स इस् अ टर्म् आफ् एण्डियर्मेण्ट् वत्स लैक् नो कन्ना लैक् दट् वत्स किम् अभवत् वाट् हेपन् किमर्थं रोदनं करोति इति पृष्टवती मातुः प्रीतिपूर्णवचनानि श्रुत्वा ओके प्रीतिपूर्ण फिल्ड् विद् लव् वचनानि श्रुत्वा त्वान्तरूपम् अम्ब अहं प्रतिदिनं स्वभोजनात् फ्रम् मै फुड् भोजनात् रोटिकाद्वयम् ऐ विल् टेक् टु रोटिकास् सञ्चित्य ऐ विल् टेक् सञ्चित्य मीन्स् टु to actually to collect sanchitya vidyalayasya marge on the way to my school upavishtayai vriddayai vibhaktika atra vriddayai
chaturthi
uttama vridda vriddayai ki what type of vriddayai upavishtayai whoever is sitting there so this has to take the same form as this one upavishtayai vriddhayai yachikayai beggar so she is an elderly beggar yachika is a bhikshuka bhikshuki like that yachikayai tat dadami sma I used to give dadami sma किन्तु ह्यः यदा अहं रोटिकाः दातुं टु गिव् तत्र गतवान् तदा सा तस्मिन् स्थाने न आसीत् सी हौ दे आर् चेञ्जिङ्ग् स्म एण्ड् आक्चुवल् भूतकाल तदा सा तस्मिन् स्थाने न आसीत् कुत्रापि गतवती स्यात् प्राबब्लि शी वेण्ट् समवेर् एताः रोटिकाः श्वः दास्यामि ऐ विल् गिव् टुमारो दास्यामि इति चिन्तयित्वा त्वान्तम् अहं गृहम् आगतवान् ताः एव रोटिकाः आनीय ल्यबन्तं निधानिकायां स्थापितवान् अद्य यदा गतवान् तदा ज्ञातम् yet I knew that sa mrita iti she died mrita iti vadan punah uchaihi rodanam arabdhavan putrasya vachanam shrutva twantam mata ativa santushta तस्य एतादृशं स्वभावं दृष्टवत्याः तस्याः आनन्दस्य सीमा, सीमा मीन्स् देर् इस् नो एण्ड्, सीमा इस् लैक् अ फेन्स्, देर् इस् नो लिमिट्, आनन्दस्य सीमा एव नासीत् न आसीत्। सः बालकः अग्रे महान् देशभक्तः जातः, सः एव क्रान्तिकारी सुभाषचन्द्रबसुः इति। अवगच्छन्ति वा कथा?
आम् आम् भगिनि,
बहु उत्तमम् अस्ति।
उत्तम उत्तमकथा, उत्तमा कथा,
बहु सम्यक् भगिनि।
उत्तम
उत्तमा कथयति।
अहं न कथां पठितवती तावदेव।
प्रकाशनं
अस्तु, अन्यप्रश्नाः सन्ति वा
भगिनि? इस् देर् अ बुक् लैक् दिस् दट् यू केन् डौन्लोड्?
No, you have to pay for it, Bhagini. It is called Sambhashana Sandeshah. It is a magazine.
Oh, I think...
So if you subscribe to it, they'll let you download, yes.
But I think I did subscribe to it.
Yeah, then you can download it, Bhagini.
But I don't know how to find that link again.
Okay, I'll send you the link.
Okay.
अस्तु, त्वान्तं सुमनन्तं विषये प्रश्नाः सन्ति वा? अस्तु, नास्ति चेत् विरमाम, शान्तिमन्त्रं वदामः। ॐ सर्वे
भवन्तु सुखिनः, सर्वे सन्तु
निरामयाः,
शान्तिः। हरिः ओम्।
धन्यवादः,
धन्यवादः भगिनि, धन्यवादः,
धन्यवादः भगिनि,
धन्यवादः भगिनि।
Dictionary entry.